अथ अष्टमोऽध्यायः। अर्जुन उवाच, किं तद्ब्रह्म किमध्यात्मम् किं कर्म पुरुषोत्तम, आदिभूतम् च किं प्रोतम्, आदिदैवम् किमुच्यते, आदियज्ञम् कथम् कोत्र, देहेऽस्मिन् मधुसूदन, प्रयाणकाले च कथम्, ज्ञेयोऽसि नियतात्मभिः। श्रीभगवानुवाच, अक्षरम् ब्रह्म परमम् स्वभावोऽध्यात्म उच्यते, भूतभावोद्भवकरो विसर्गः कर्म सम्पन्नितः, आदिभूतम् क्षरो भावः पुरुषश्चादिदैवतम्, आदियज्ञोऽहमेवात्र, देहे देहभृताम्बर, अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्। यः प्रयाति समद्भावम् याति नात्यत्र संशयः, यम् यम् वापि स्मरन् भावम् तजयन्ते कलेवरम्, तम् तमेवैति कौन्तेय सदा तद्भावभावितः। तस्मात् सर्वेषु कालेषु मामनुस्मर युद्ध च, मयर्पित्मनोर्बुद्धि मामेवैष्यसि संशयम्। अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमम् पुरुषम् दिव्यम् यान्ति पार्थानुचिन्तयन्। कविम् पुराणामनुशासितारम् अणोरण्याम् समनुस्मरेत्याह, सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णम् तमसस्परस्तात्। प्रयाणकाले मनसाश्चलेन भक्त्या युक्तो योगबलेनश्चैव, भ्रुवो मध्ये प्राणमावेश्य सम्यक् सत्त्वम् परम् पुरुषमुपैति दिव्यम्। यदक्षरम् वेदविदो वदन्ति विशन्ति यत्तत्तयो वीतरागाः, यदिच्छन्तो ब्रह्मचर्यम् चरन्ति तत्ते पदम् सङ्ग्रहेण प्रवक्ष्ये। सर्वद्वाराणि संयम्य मनोरिति निरुद्ध्य च, मृद्नाधायात्मनः प्राणम् आस्तितो योगधारणम्। ओमित्येकाक्षरम् ब्रह्म व्यवहारन् मामनुस्मरन्, यः प्रयाति तजन् देहम् स यान्ति परमाम् गतिम्। अनन्यचेताः सततम् यो माम् स्मरति नित्यशः, तस्याहम् सुलभः पार्थ नित्ययुक्तस्य योगिनः। मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्, नाप्तुवन्ति महात्मनः संसिद्धिम् परमाम् गताः। आब्रह्मभुवनालोकाः पुनरावर्तिनोऽर्जुन, मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते। सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः, रात्रिम् युगसहस्रान्तम् ते होरात्रविदो जनः। अव्यक्ताद्व्यक्तयः सर्वाः प्रवद्यन्ति ह्रागमे, रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञिके। भूतग्रामः स एवायम् भूत्वा भूत्वा प्रलीयते, रात्र्यागमे वशम् पार्थ प्रवद्यन्ति ह्रागमे। परस्तस्मात् भावन्यो व्यक्तो व्यक्तसनातनः, यः स सर्वभूतेषु नत्स्यत्सो न विनश्यति। अव्यक्तोऽक्षर इत्युक्त तस्माहो परमाम् गतिम्, यः प्राप्य न निवर्तन्ते तद्धाम परमम् मम। पुरुषः स परः पार्थ भक्त्या लभस्त्वनन्यया, यस्यान्ति स्थानि भूतानि येन सर्वमिदम् ततम्। यत्र काले त्वनावृत्तिम् अवृतिंश्चैव योगिनः, प्रयाता यान्ति त्वम् कालम् वक्ष्यामि भरतर्षभ। अग्निर्ज्योतिरिह शुक्लः षणमासा उत्तरायणम्, तत्र प्रयाति गच्छन्ति ब्रह्म ब्रह्म विदो जनः भूमो रात्रिस्तता कृष्णः क्षणमासा दक्षिणायणम् तत्र चन्द्रमसाम् ज्योतिर्योगी प्राप्य निवर्तते शुक्लकृष्णे गतिर्ह्येते जगतः शाश्वते मते एकया यात्यना वृत्तिम् अन्यया वर्तते पुनः नैते श्रुति पार्थ जानन् योगी मुह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलम् प्रतिष्ठम् अत्येति तत्सर्वमिदम् विदित्वा योगे परम् स्थानमुपैति चाध्यम् ॐ तत्सदिते श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः।